धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः मामुकाः पाण्डवाश्चैव किं मकुर्वत संजय किं मकुर्वत संजय
संजय उवाच
दृष्ट्वा तु पांडवानीकं व्यूढ़ं दुर्योधनस्तदा आचार्यं उपसंगम्य राजा वचनं अब्रवीत् पश्यैतां पांडुपुत्राणां आचार्य महतीं चमूं व्यूढ़ां द्रुपदपुत्रेण तव शिष्येण धीमता
अत्र शूरा महेश्वासा भीमार्जुन समायुधि दुर्योधनो विराटश्च द्रुपदश्च महारथः दुर्योधनो विराटश्च द्रुपदश्च महारथः केतुश्चेकितारः काशीराजश्च वीर्यवान् गुरुजित् कुन्तिभोजश्च युधामन्युश्च विक्रान्त उत्तमोजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः सर्व एव महारथाः
अस्माकं तु विशिष्टाये तान्निबोध द्विजोत्तमा नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अन्ये च बहवः शूरा मदस्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं द्विदमेतेषां बलं भीमाभिरक्षितं पर्याप्तं द्विदमेतेषां बलं भीमाभिरक्षितं बलं भीमाभिरक्षितम्
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मे अच्युत यावदेतान् निरीक्षेऽहम् योद्धुकामान् अवस्थिता कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे
సంజయ ఉవాచ
తత్ర పశ్యత్ స్థితాన్ పార్థ పితృన్ అథ పితామహాన్ ఆచార్యాన్ మాతులాన్ భ్రాతృన్ పుత్రాన్ పౌత్రాన్ సఖీన్స్తథా శ్వశురాన్ సుహృదశ్చైవ సేనయోర్ ఉభయోరపి తాన్ సమీక్ష కౌంతేయః సర్వాన్ బంధూనవస్థితాన్ కృపయా పరయా విష్టో విషీదన్ ఇదం అబ్రవీత్.
అర్జున ఉవాచ
దృష్ట్వేమం స్వజనం కృష్ణ యుయుత్సు సముపస్థితం సీదంతి మమ గాత్రాణి ముఖం చ పరిశుష్యతి వేపథుశ్చ శరీరే మే రోమహర్షశ్చ జాయతే గాండీవం శ్రమసతే హస్తాత్ త్వక్చైవ పరిదహ్యతే నచ శక్నోమి అవస్థాతుం భ్రమతీవచ మే మనః. నకాంక్షే విజయం కృష్ణ నచ రాజ్యం సుఖాని చ కిం నో రాజ్యేన గోవింద కిం భోగర్జీవితేన వా.
రథోపస్థ ఉపావిశత్ విసృజ్య సశరం చాపం శోక సంవిఘ్నమా मनसः शोकसंविघ्नमानसः।
सञ्जय उवाच
तं तथा कृपया विष्टम् अश्रुपूर्णाकुलेक्षणम् तं अश्रुपूर्णाकुलेक्षणम् विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः उवाच मधुसूदनः
श्रीभगवान् उवाच
अशोचान् अन्वशोचस्त्वम् प्रज्ञावादांश्च भाषसे गतासून गतासूंश्च नानुशोचन्ति पण्डिताः नानुशोचन्ति पण्डिताः। न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे
वेद अविनाशिनं नित्यं य एनं अजं अव्ययं
कथं स पुरुषः पार्थ तं घातयति हन्तिकम् वातांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि जीर्णानि अन्यानि संयाति नवानि देहि
छिन्दन्ति शस्त्राणि नयनं दहति पावकः नयनं छिन्दन्ति शैलाणि शस्त्राणि नयनं दहति पावकः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
जातस्य हि ध्रुवो मृत्युः
जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य च
ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे न त्वं शोचितुम् अर्हसि
न त्वं शोचितुम् अर्हसि
कर्मण्येव अधिकारस्ते मा फलेषु कदाचन कर्मण्येव अधिकारस्ते मा फलेषु कदाचन मा कर्म फल हेतुर्भूः मा ते संगोस्त्व कर्मणि मा ते संगोस्त्व कर्मणि मा ते संगोस्त्व
योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय सिद्धि असिद्ध्योः समो भूत्वा समत्वं योग उच्यते समत्वं योग उच्यते
Padam
gar
गच्छन्त्यनामयम्
पदं गच्छन्त्यनामयम्
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः फलं त्यक्त्वा मनीषिणः
यदा ते मोहकलिलं बुद्धिः व्यतितरिष्यति
व्यतितरिष्यति
तदागन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च
यदा ते मोहकलिलं बुद्धिः व्यतितरिष्यति
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते कामात् क्रोधोऽभिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम् न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम् इन्द्रियाणाम् हि चरता यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञा वायुर्नावमिवाम्भसि तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता
अर्जुन उवाच
जायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन तत्किं कर्मणि घोरे मां नियोजयसि केशव व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चित्य येन श्रेयोऽहम् आप्नुयाम्।
श्री भगवान् उवाच।
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां
न कर्मणामनारम्भात् नैष्कर्म्यम् पुरुषो श्नुते न च सन्न्यसनाथेव सिद्धिम् समधिगच्छति
न च सन्न्यसनाथेव सिद्धिम् समधिगच्छति।
नहि कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृत् कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारस्य उच्यते
इन्द्रियार्थान् विमूढात्मा
यस्तु इन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियैः कर्मयोगम् असक्तस्य विशिष्यते
कर्मेन्द्रियैः कर्मयोगम् असक्तस्य विशिष्यते असक्तस्य
विशिष्यते। नियतं कुरु कर्मत्वं कर्मज्जायो ह्य कर्मणः शरीरयात्रापि च ते न प्रसिद्धेद कर्मणः
शरीरयात्रापि च ते प्रसिद्धेद कर्मणः
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्म बन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर मुक्तसङ्गः समाचर।
देवहि संसिद्धिमास्तिता जनकादयः लोकसंग्रहं देवापि संपश्यन् कर्तुम् अर्हसि। यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः स यत्प्रमाणम् कुरुते लोकस्तत् अनुवर्तते।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च
परित्राणाय साधूनां विनाशाय च दुष्कृता धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे जन्म कर्म च मे दिव्यम् एवं यो वेति तत्त्वतः जन्म कर्म च मे दिव्यम् एवं यो वेति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति माम् एति सोऽर्जुन नैति माम् एति सोऽर्जुन वीतराग भय क्रोधा मन्मया मामुपाश्रिता वीतराग भय क्रोधा मन्मया मामुपाश्रिता बहवो ज्ञान तपसा पूता मद्भावमागता ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम वर्तमानुवर्तन्ते मनुष्या पार्थ सर्वशः मम वर्तमानुवर्तन्ते मनुष्या पार्थ सर्वशः श्रेयां द्रव्यमयाद्य ज्ञाय ज्ञानयज्ञः परन्तप
श्रेयां द्रव्यमयाद्य ज्ञाय ज्ञानयज्ञः परन्तप
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया
तद्विद्धि प्रणिपातेन
उपदेश सन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः
उपदेशन्ति ते ज्ञानम् ज्ञानिनस्तत्त्वदर्शिनः
यज्ञात्वान पुनर्मोहम् एवं यास्यसि पांडव
यज्ञात्वान पुनर्मोहम् एवं यास्यसि पांडव
येन भूतान्यशेषेण द्रक्षस्यात्मन्यथो मयि
येन भूतान्यशेषेण द्रक्षस्यात्मन्यथो मयि
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि
सर्वं ज्ञानप्लवेनैव वृजिनं
सन्तरिष्यसि यथैधांसि समिद्धोऽग्निः भस्मसात् कुरुतेऽर्जुन
यथैधांसि समिद्धो भस्मसात् कुरुते अर्जुन
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति
श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः
श्रद्धावान् लभते ज्ञानम् तत्परः संयतेन्द्रियः
ज्ञानम् लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति
ज्ञानम् लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति
श्री भगवान उवाच
सन्यास कर्मयोगश्च निःश्रेयस करावुभौ तयोस्तु कर्म सन्यासात् कर्मयोगो विशिष्यते
सन्न्यासः कर्मयोगश्च निःश्रेयस कराबुभौ तयोस्तु कर्मसन्न्यासात् कर्म कर्मयोगो विशिष्यते।
ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति, निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते।
ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति, निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते।
साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः, एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम्।
साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः, एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम्।
यत् साङ्ख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते, एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति।
यत् साङ्ख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते, एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति।
सन्न्यासस्तु महाबाहो दुःखम् आप्तुम् अयोगतः, योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति।
सन्न्यासस्तु महाबाहो दुःखम् आप्तुम् अयोगतः, योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति।
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः, सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते। सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते।